ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। ब्रह्मोवाच वाचां वन्नेर्मुखं क्षेत्रं छन्दसां सप्तधातवः हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च सर्वासूनां च वायोश्च तन्नासे परमायने अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः रूपाणां तेजसां चक्षुर्दिव सूर्यस्य चाक्षिणी कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनं त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु संभृतः केशस्मसृणखान्यस्य शिलालोहाभ्रविद्युतां बाहवो लोकपालानां प्रायस क्षेमकर्मणां विक्रमो भूर्भुवस्वश्च क्षेमस्य शरणस्य च सर्वकामवरस्यापि हरेश्चरण आस्पदम् अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः पुंसशिष्ण उपस्थस्तु प्रजात्यानन्दनिर्वृतेः पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद हिंसाया निरृतेर्मृत्योर्निरयस्य गुदस्मृतः पराभूतेरधर्मस्य तमसश्चापि पश्चिमः नाड्यो नदनदीनां तु गोत्राणामस्ति संहतिः अव्यक्तरससिन्धूनां भूतानां निधनस्य च उदरं विदितं पुंसो हृदयं मनसः पदम् धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः सुरासुरनरा नागा खगा मृगसरीसृपाः गन्धर्वाप्सरसो यक्षा रक्षो भूतगणोरगाः पशवः पितरः सिद्धा विद्याध्राश्चारणाद्रुमाः अन्ये च विविधा जीवा जलस्थलनभौकसः ग्रहर्षकेतवस्तारा स्तडितः स्तनयत्नवः सर्वं पुरुष एवेदं भूतं भव्यं भवच्चयत् तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ एवं विराजं प्रतपन् सपत्यन्तर्बहिः पुमान् सोमृतस्याभयस्येषो मर्त्यमन्नं यदत्यगात् महिमैषततो ब्रह्मन् पुरुषस्य दुरत्ययः पादेषु सर्वभूतानि पुंसस्थितिपदो विदुः अमृतं क्षेममभयं त्रिमूर्ध्नोधायि मूर्धसु पादास्त्रयो बहिश्चासन्न प्रजानां याश्रमाः अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो बृहद्व्रतः श्रुतिविचक्रमे विश्वं शासनानसने उभे यदविद्या च विद्या च पुरुषस्तु भयाश्रयः यस्मादण्डं विराज्जज्ञे भूतेन्द्रियगुणात्मकः तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवातपन् यदास्य नाभ्यान्नलिनादहमासं महात्मनः नाविदं यज्ञसंभारान् पुरुषावयवादृते तेषु यज्ञस्य पशवः स वनस्पतयः कुशाः इदं च देवयजनं कालश्चोरुगुणान्वितः वस्तून्योषधयः स्नेहारसलोहमृदो जलं ऋजो यजूंसि सामान्य चातुर्होत्रं च सत्तम नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च देवतानुक्रमकल्पसङ्कल्पस्तन्त्रमेव च गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणम् पुरुषावयवैरेते सम्भारा संभृता मया इति संभृतसम्भारः पुरुषावयवैरहम् तमेव पुरुषं यज्ञं तेनैव यजमीश्वरम् ततस्ते भ्रातर इमे प्रजानां पतयोत्नव अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ततश्च मनवः काले ईजिरे ऋषयोपरे पितरो विबुधा दैत्या मनुष्याः कृतुभिर्विभुम् नारायणे भगवति तदिदं विश्वमाहितम् गृहीतमायोरुगुणः सर्गादावगुणः स्वतः सृजामि तन्नियुक्तोऽहम् हरो हरति तद्वशः विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् इति तेऽभिहितं तात यथेदमनुपृच्छसि नान्यद्भगवतः किञ्चित् भाव्यं सदसदात्मकम् न भारती मेऽङ्गमृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषागतिः न मे ऋषिकाणि पतन्त्य सत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः सोऽहं समाम्नाय मयस्तपोमयः प्रजापतीनामभिवन्दितपतिः आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः न तोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् यो यात्ममाया विभवं स्वपर्यगात् यथा नपस्वान्तमथा परे कुतः नाहं न यूयं यदृतां गतिं विदुर्न वामदेवः किमुता परे सुराः तन्मायया मोहितबुद्धयस्विदं विनिर्मितं चात्मसमं विचक्ष्महे यस्यावतारकर्माणि गायन्ति यस्मदादयः नयं विदन्ति तत्त्वेन तस्मै भगवते नमः स एषाद्यः पुरुषः कल्पे कल्पे सृजत्यजः आत्मात्मन्यात्मनात्मानं संयच्छति जपाति च विशुद्धं केवलं ज्ञानं प्रत्यक्षम्यगवस्थितं सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयं ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः यदा तदेवा सत्तर्कैः स्थिरोधीयेत विप्लुतम् आद्योऽवतारः पुरुषः परस्य कालस्वभावः सदसन्मनश्च द्रव्यं विकारो गुणैन्द्रियाणि विराट् स्वराट् स्थाष्णुचरिष्णुभूम्नः अहं भवो यज्ञैमे प्रदेशा दक्षादयो ये भवदादयश्च स्वर्लोकपाला खगलोकपाला नृलोकपाला स्थललोकपालाः गन्धर्वविद्याधरचारणेशा ये यक्षरक्षो रगनागनाथाः ये वार्षीणां ऋषभा पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः अन्ये च ये प्रेतपिशाच भूत कूष्माण्डयादो मृगपक्षधीशाः यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् प्राधान्यतो यान् ऋषामनन्ति लीलावतारान् पुरुषस्य भूम्नः आपीयतां कर्णकषाय शोषाननुक्रमिष्येत इमान् सुपेशान् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।